ಶಿದ್ಧೈರಭ್ಯೈಭಿರಿ ಲುಲಿತ ಮಕರಂದೋ ಮಧುಕರೈಃ ಕರೈರಿಂದೋರಂತಶ್ಚುರಿತೈವ ಸಂಭಿನ್ನ ಮುಕುಲಃ ವಿಧತ್ತಾಂ ಸಿದ್ಧಿಂ ನೋ ನಯನ ಸುಭಗಾಮಸ್ಯ ಸದಸಃ ಪ್ರಕೀರ್ಣ ಪುಷ್ಪಾನಾಂ ಹರಿಶರಣಯೋರಂಜಲಿರಯಂ. ಚತುಶ್ಚತ್ವಾರಿಂಶಃ ಶ್ಲೋಕಃ. ದೃಷ್ಟಃ ಇತಿ ಪ್ರಹರ್ತುಂ ಇಚ್ಛತಿ. ತಸ್ಮಿನ್ ಶ್ಲೋಕೆ ಅಶ್ವತ್ಥಾಮ ವದತಿ ಅಹಂ ಅದ್ಯೈವ ಲೋಕಂ ಅಕರ್ಣಂ ಅಪೃತಾತ್ಮಜಂ ಕರೋಮಿ. ಅಹಂ ಕರ್ಣರಹಿತಂ ಲೋಕಂ ಕರೋಮಿ, ಅರ್ಜುನರಹಿತಂ ಲೋಕಂ ಚ ಕರೋಮಿ ಅದ್ಯೈವ. ಅತಃ ಮಾ ಮುಂಚ ಮಮ ನಿಷೇಧಂ ನ ಕರೋತು ಇತಿ ಅಶ್ವತ್ಥಾಮ ದುರ್ಯೋಧನಂ ವದತಿ. ಅತ್ರ ಕ್ರೋಧಾತ್ ಅಕರ್ಣಂ ಅಪೃತಾತ್ಮಜಂ ಅದ್ಯ ಲೋಕಂ ಇತಿ ಚತುಶ್ಚತ್ವಾರಿಂಶ ಶ್ಲೋಕಸ್ಯ ಅಂತಿಮಾ ಪಂಕ್ತಿಃ ಇಆರ್ಸಿ ಸಸಂದರ್ಭಂ ವ್ಯಾಖ್ಯಾತ ಇತಿ ಪ್ರಶ್ನೆ ಭವಿತುಮ್ ಅರ್ಹತಿ. ಕ್ರೋಧಾತ್ ಅಕರ್ಣಂ ಅಪೃಥಾತ್ಮಜಂ ಅದ್ಯ ಲೋಕಂ ಇತಿ ಇಆರ್ಸಿ ಭವತಿ. ಕರ್ಣಃ ಖಡ್ಗಂ ಉದ್ಯಮ್ಯ ಅರೇ ವಾಚಾಟ ಬ್ರಾಹ್ಮಣಾಧಮ ಅಯಂ ನ ಭವತಿ ರಾಜನ್ನ ಮುಂಚ ಮುಂಚ ನ ಖಲು ಅಹಂ ವಾರಯಿತವ್ಯಃ. ಇದನ್ನು ಕರ್ಣಃ ಅಪಿ ಖಡ್ಗಂ ಉದ್ಯಮ್ಯ, ಉದ್ಯಮ್ಯ ನಾಮ ಸ್ವೀಕೃತ್ಯ ಅಥವಾ ಉನ್ನೀಯ, ಕಿಂಚಿತ್ ಉಪರಿ ಸ್ವೀಕೃತ್ಯ ಇತಿ ಉನ್ನೀಯ ವರ್ಧತಿ. ಅರೇ ವಾಚಾಟ ಯಃ ಅಧಿಕಂ ವದತಿ ಸಹ ವಾಚಾಟಃ ಭವತಿ. ಬ್ರಾಹ್ಮಣ ಅಧಮ ಬ್ರಾಹ್ಮಣ ನೀಚಃ ಅಸ್ತಿ ತ್ವಂ ಭವಾನ್, ಅಥವಾ ಬ್ರಾಹ್ಮಣ ಅಧಮ ಅಯಂ ನ ಭವತಿ ಏಷಃ ನ ಸಂಭವತಿ ಇತಿ ವದತಿ. ಕಃ ನ ಸಂಭವತಿ ಅದ್ಯಾಹಂ ಲೋಕಂ ಅಕರ್ಣಂ ಅಪೃಥಾತ್ಮಜಂ ಕರೋಮಿ ಕುರ್ಯಾಂ ಇತಿ ಪ್ರಾಕ್ತನ ಶ್ಲೋಕೆ ಅಶ್ವತ್ಥಾಮ ವದತಿ ಕಿಲ ತದ್ ನ ಭವತಿ ಇತಿ ವದತಿ. ಸಹ ವಿಷಯಃ ನ ಭವತಿ ಇತಿ ರಾಜನ್ ಇತಿ ದುರ್ಯೋಧನಂ ಸಂಬೋಧಯತಿ. ಮುಂಚ ಮುಂಚ ಮಾಂ ತ್ಯಜ, ನ ಖಲು ಅಹಂ ವಾರಯಿತವ್ಯಃ ಅಹಂ ನ ನಿವಾರಿತವ್ಯಃ ವಾರಯಿತವ್ಯಃ ಇತ್ಯುಕ್ತೆ ಮಮ ನಿಷೇಧಂ ನ ಕರೋತು ಇತಿ ಡು ನಾಟ್ ಸ್ಟಾಪ್ ಮೀ ಇತಿ ಹಂತುಂ ಇಚ್ಛತಿ. ಸಹ ಅಪಿ ತಾಡಯಿತುಂ ಅಥವಾ ಮಾರಯಿತುಂ ಉದ್ಯುಕ್ತಃ ಭವತಿ. ಇದಾನೀಂ ದುರ್ಯೋಧನ ಕೃಪೌ ನಿವಾರಯತಃ ದುರ್ಯೋಧನಃ ತಥಾ ಕೃಪಾಚಾರ್ಯಃ ಚ ದೌ ಅಶ್ವತ್ಥಾಮ ಕರ್ಣ ಅಶ್ವತ್ಥಾಮಾನೌ ನಿವಾರಯತಃ ಇವಂ ಪರಸ್ಪರಂ ಕಲಹಃ ಮಾಸ್ತು ಇತಿ ದ್ವಾವಪಿ ನಿವಾರಯತಿ ಸ್ಮ ದುರ್ಯೋಧನ ಕೃಪಾಚಾರ್ಯ ದ್ವಯಮಪಿ ಮಿಲಿತ್ವಾ. ದುರ್ಯೋಧನಃ ಕರ್ಣ ಗುರುಪುತ್ರ ಕೋಯಮದ್ಯ ಯುವಯೋರ್ ವ್ಯಾಮೋಹಃ ಹೇ ಕರ್ಣ ಹೇ ಗುರುಪುತ್ರ ಇತಿ ದ್ವಾವಪಿ ಸಂಬುಧ್ಯ ವದತಿ. ಕಃ ಅಯಂ ಅದ್ಯ ಯುವಯೋಃ ವ್ಯಾಮೋಹಃ, ಯುವಯೋಃ ಅದ್ಯ ಅಯಂ ವ್ಯಾಮೋಹಃ ಕಃ ಇತಿ. ವ್ಯಾಮೋಹಃ ಯುವಯೋಃ ನಾಮ ಕರ್ಣ ಅಶ್ವತ್ಥಾಮ್ನೋಃ ಭವತೋಃ ಅದ್ಯ ಇದಾನೀಂ ಕಃ ವ್ಯಾಮೋಹಃ. ಕಃ ವ್ಯಾಮೋಹಃ ಇತ್ಯುಕ್ತೆ ಅವಿವೇಕತಾ, ವಿವೇಕರಾಹಿತ್ಯಂ, ವಿವೇಕಶೂನ್ಯತಾ ಇತಿ. ಇದಾನೀಂ ಕಿಂ ಅಭವತ್, ಕಿಂ ಕರಣೀಯಂ, ಕಿಂ ಕಾರ್ಯಂ ಅಸ್ತಿ, ಕೀದೃಶಃ ವಿಚಾರಃ ಕರಣೀಯಃ ಇತ್ಯಾದಿ ಅತಿಮುಖ್ಯಾನ್ ವಿಷಯಾನ್ ತ್ಯಕ್ತ್ವಾ ಇದಾನೀಂ ಯುವಯೋಃ ಕಲಹಃ ವರ್ಧಮಾನಃ ಅಸ್ತಿ, ತತ್ ವಿವೇಕಶೂನ್ಯತ್ವಮೇವ ಪ್ರತಿಪಾದಯತಿ ಯುವಯೋಃ ಇತಿ ವದತಿ. ಸಹ ಕಿಮರ್ಥಂ ಅಯಂ ಏತಾದೃಶಃ ವ್ಯಾಮೋಹಃ ಅವಿವೇಕತಾ ದ್ವಯೋಃ ಅಪಿ ಇತಿ ಕರ್ಣ ದುರ್ಯೋಧನಃ ಪೃಚ್ಛತಿ. ಕೃಪಃ ವತ್ಸ ಅನ್ಯದೇವ ಪ್ರಸ್ತುತಂ ಅನ್ಯತ್ರ ಆವೇಗಃ ಇತಿ ಕೋ ಅಯಂ ವ್ಯಾಮೋಹಃ. ಕೃಪಃ ಅನ್ಯದೇವ ಪ್ರಸ್ತುತಂ ಅನ್ಯತ್ರ ಆವೇಗಃ ಇತಿ ಕೋ ಅಯಂ ವ್ಯಾಮೋಹಃ. ನಮ್ಮ ಅನ್ಯದೇವ ಪ್ರಸ್ತುತಂ ಇತಿ ಇತ್ಯುಕ್ತೆ ಅನ್ಯತ್ ಅಭವತ್, ನೋ ಚೇತ್ ಅನ್ಯತ್ ಕರಣೀಯಂ ಅಸ್ತಿ, ಕರಣೀಯಂ ಕಾರ್ಯಂ ಅನ್ಯತ್ ಅಸ್ತಿ, ಕಿಂತು ಇದಾನೀಂ ಕಿಂ ಕ್ರಿಯಮಾನಂ ಅಸ್ತಿ ಆವೇಗಃ ಏವ ಇದಾನೀಂ ಚಲತಿ, ನಮ್ಮ ಕೋಪಃ ಏವ ಇದಾನೀಂ ಅಸ್ತಿ. ಅನ್ಯತ್ರ ಆವೇಗಃ ಇತಿ ಕೋಯಂ ವ್ಯಾಮೋಹಃ ಇತಿ ದುರ್ಯೋಧನೇನ ಯತ್ ಯುವಯೋಃ ಕಃ ಅದ್ಯ ವ್ಯಾಮೋಹಃ ಇತಿ ವಾಕ್ಯಮೇವ ಕೃಪಾಚಾರ್ಯಃ ಇತೋಪಿ ಸ್ಪಷ್ಟಂ ವದತಿ ಅನೇನ ವಾಕ್ಯೇನ. ಕರಣೀಯಂ ಇತಿ ಕಾರ್ಯಂ ಅನ್ಯತ್ ಅಸ್ತಿ, ಕಿಮಪಿ ಕರಣೀಯಂ ಅಸ್ತಿ ಕಿಂತು ಅತ್ರ ಕಿಮಪಿ ಕ್ರಿಯತೆ ಭವತಾ ಇತಿ ಅಶ್ವತ್ಥಾಮಾನಂ ವದತಿ. ಕಾರಣಂ ಏತಾದೃಶಃ ಕೋಪಃ ತು ದುಷ್ಟದ್ಯುಮ್ನಾಯ ಪ್ರದರ್ಶಿತವ್ಯಃ ಕೋಪಃ, ದುಷ್ಟದ್ಯುಮ್ನಸ್ಯ ಉಪರಿ ಯಃ ಕೋಪಃ ಪ್ರದರ್ಶನೀಯಃ ಸಹ ಕೋಪಃ ಅದ್ಯ ಕರ್ಣಸ್ಯ ಉಪರಿ ಪ್ರದರ್ಶ್ಯತೆ इति अपि स्यात् कृपाचार्यस्य वाक्यस्य अर्थः। अतः अन्यत्रैव प्रस्तुतम्, अन्यत् करणीयमस्ति, अन्यत्र आवेगः, किन्तु अन्यस्मिन् भवतः कोपः प्रदर्श्यते इति कोऽयं व्यामोहः? किमर्थम् एतादृशः एतादृशी अविवेकता? अपि च किं स्वबलव्यसनं च इदम् अस्मिन् काले राजकुलस्य अस्य युष्मत्तः एव भवति इति वामः पन्थाः। अस्मिन् काले, अस्मिन् समये, कस्मिन् समये एवं भवतोः अविवेकतया इदानीं परस्परं यः कलहः जायते, एतस्मिन् काले, एतस्मिन् समये अस्य राजकुलस्य, एतस्य राजकुलस्य, दुर्योधनस्य, धृतराष्ट्रराजकुलस्य युष्मत्तः एव, युष्मत्तः इत्युक्ते भवद्भ्यः एव इति, भवद्भ्यः सर्वेभ्यः एव, नो चेत् कर्ण अश्वत्थामा कर्णाभ्याम् एव इति युष्मत्तः इति तत्प्रत्ययः। अत्र ग्रामतः इति उच्यते किल, वृक्षतः, ग्रामतः, तथा युष्मत्तः, युष्मत्तः एव अस्य राजकुलस्य अस्मिन् काले, अस्य राजकुलस्य स्वबलव्यसनम् इदं युष्मत्तः एव भवति, बिकास् आफ् यू, राज स्वबलव्यसनं, स्वस्य बलस्य व्यसनं नाम विनाश, विनाशः स्वसेनायाः वा स्वस्य बलस्य व्यसनं, व्यसनं नाम दुःखम् अतः अथवा विनाशः युष्मत्तः एव भवति इति, युष्मभ्यमेव भवति इति वामः पन्थाः, अनुचितः मार्गः, एषः उचितः मार्गः न। अतः युवयोः मध्ये विद्यमानः कलहः निषिध्यताम् इदानीमेव, वार्यतां, कलहः मास्तु इति वदति। कारणं यदि अस्मिन् काले एतादृशी स्थितिः अस्ति चेत् भवद्भ्यः एव, यु इट्सेल्फ् राजकुल, अस्य राजकुलस्य व्यसनं भवति, अस्य राजकुलस्य विनाशः भवति, बलस्य विना, राजकुलस्य बलस्य विनाशः भवति इति उचितः मार्गः न, वामः पन्थाः। वामः इति पदस्य लिटरल् अर्थः न स्वीकरणीयः, दक्षिणतः, वामतः इति, लेफ्ट् सैड् इति, लेफ्ट् रोड् इति अर्थः न करणीयः। अत्र वामः इत्युक्ते अनुचितः, विरोधः मार्गः इति अर्थः, उचितः मार्गः न। अश्वत्थामा, मातुल, न लभ्यते अस्य कटुप्रलापिनः रथकारकुलकलङ्कस्य दर्पः शान्तयितुम्। अत्र अश्वत्थामा पुनः वदति, अस्य, अस्य कर्णस्य, कीदृशस्य कर्णस्य कटुप्रलापिनः, कटूनि वचनानि वदति, कटु नाम परुषानि वाक्यानि, यः प्रलापति, प्रलपति सः कटुप्रलापी भवति। कटुप्रलापिनः अस्य रथकारकुलकलङ्कस्य, सारथीकुलस्य, सारथीकुलस्य कलङ्कः अस्ति सः, तस्य दर्पः शान्तयितुं, शान्तयितुम् इति भवति कुत्रचित् शातयितुम् इति भवति, शातयितुम् इति इतोपि उचितं स्यात् चूर्णीकर्तुं, मारयितुं, नो चेत् नाशयितुम् इति अर्थः। तस्य दर्पं नाशयितुं, तस्य अहङ्कारं चूर्णीकर्तुं न लभ्यते, नाम अन्यः अवकाशः न लभ्यते इति वदति। एतस्य कर्णस्य अहङ्कारं नाशयितुं मम अन्यः अवकाशः न लभ्यते, अतः इदानीमेव अहं तस्य अहङ्कारं नाशयामि इति। शातयितुं, शान्तयितुम् इति स्वीक्रियते चेत् दर्पं शमयितुम् इति अर्थः स्वीकरणीयः। अहङ्कारं शमयितुं न लभ्यते, अस्य अहङ्कारं शमयितुं न लभ्यते नाम अन्यः अवकाशः न लभ्यते मम, अतः इदानीमेव अहं तत् करोमि। कृपः, वत्स, अकालः खलु स्वबलप्रधानविरोधस्य, स्वबलप्रधानविरोधस्य अकालः, अकालः खलु इति वदति। स्वबल नाम स्वस्य बलं, सेना, स्वस्य सेनायां प्रधानौ पुरुषौ स्तः, सैनापत्यपदव्यां नियुज्यमानौ प्रधानौ पुरुषौ स्तः युवा, नाम अश्वत्थामा कर्णोद्वौ अपि युवयोः विरोधः इदानीम् अकालः अस्ति इति. स्वस्य सेनायाः प्रधानपुरुषयोः विरोधः यः अस्ति तस्य विरोधस्य अकालः अनुचितः कालः एषः, अतः युवयोः मध्ये इदानीं विरोधः न भवेत्. अश्वत्थामा मातुल, यदि एवम् अयं पापः यावत् न निधनम् उपेयात् अरिशरैः परित्यक्तं तावत् प्रियमपि मया अस्त्रं रणमुखे बलानां नाथे अस्मिन् परिकुपितभीतार्जुनभये समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे. इदानीं सः वदति यदि एवं, यदि भवान् एवं वदति चेत्, आवयोः विरोधस्य अकालः अयम् इति यदि वदति चेत् अहम् एकं कार्यं करोमि. अश्वत्थामा वदति, अहं प्रियमपि मम अस्त्रं परित्यजामि, अहम् अस्त्रं त्यजामि, युद्धक्षेत्रं न गच्छामि. एषः कर्णः गच्छतु युद्धार्थं, सः एषः एतस्य गमनं ज्ञात्वा भीमः तथा अर्जुनः तु कुपितौ भवेताम्. तस्मात् एषः भीतः भवति, तदा तस्य सामर्थ्यं कीदृशं भवति रणक्षेत्रे इति राजा दुर्योधनः स्वयमेव जानातु. अतः यावत् तस्य मरणं न सम्भवति तावत् अहं युद्धक्षेत्रं न गच्छामि इति अश्वत्थामा वदति. अयं पापः, अयं पापः कर्णः यावत् अरिशरैः निधनं न उपेयात्, यावत् कालपर्यन्तम् अरिशरैः शत्रुबाणैः निधनं मरणं न उपेयात् न प्राप्नुयात्, यावत् कालपर्यन्तम् एषः मरणं न प्राप्नोति, एषः कर्णः मरणं न प्राप्नोति, तावत् कालपर्यन्तं मया अश्वत्थाम्ना रणमुखे युद्धक्षेत्रे प्रियमपि अस्त्रं परित्यक्तं, मम अतिप्रियमपि अस्त्रं परित्यक्तं. किमर्थं प्रियमपि इति वदति सः इत्युक्ते अत्र पितुः मरणात् एतेन अस्त्रेण अरीनां प्रतिक्रिया करणीया इति अस्ति, अतः इदानीम् अस्त्रं तस्य अतिप्रियतमम् अस्ति, अतः प्रियमपि अस्त्रं मया परित्यक्तम्. अतः यावत् कालं कर्णः मरणं न प्राप्नोति तावत् कालम् अहम् अस्त्रं परित्यजामि, अहम् अस्त्रं न गृह्णामि, युद्धं न करोमि. बलानां नाथे अस्मिन् सतिसप्तमी, बलानां नाथे अस्मिन् सति सेनानां नाथः, यदा कर्णः सेनानां नाथः भवति तदा इति अर्थः. बलानां नाथे अस्मिन् कर्णे सति, सति तदा किं भवति, समरः कथं भवति इत्युक्ते कूपितभीमार्जुनभये समुत्पन्ने समरे. तदा समरः कथं भवति इत्युक्ते परिकुपित अत्यधिकं कोपं प्राप्त भीमः तथा अर्जुनः एताभ्यां भये समुत्पन्ने समरे. एताभ्यां यदा कर्णः सेनापतिः भूत्वा युद्धं करोति चेत् भीमार्जुनम् इतोपि बलवन्तु जायेताम् इति अश्वत्थाम्नः अभिप्रायः. अतः परिकुपितभीमार्जुनभये, भीमार्जुनाभ्यां भीतः भवति अयं समरः, तावत् क्रुद्धौ भवेतां भीमार्जुनौ द्वौ अपि. तदा यदा कर्णः बलानां नाथः भवति चेत् भीमार्जुनौ अतिकुपितौ भवेतां, ताभ्यां भीतः भवति अयं समरः. अतः भीमार्जुनभये समुत्पन्ने समरे सति, यदा भीमार्जुनाभ्यां भयम् उत्पन्नः भवति समरे, समरः उत्पन्नः समरः सति, उत्पन्ने समरे सति प्रियसखबलं राजा वेत्तु. राजा दुर्योधनः प्रियसखः अस्ति, तस्य प्रियमित्रम् अस्ति कर्णः, तस्य बलं कीदृशं भवति, तस्य सामर्थ्यं कीदृशं भवति, अर्जुनः भीमः द्वावपि अतिकुपितौ भवतः यदा एषः सेनापतिः अस्ति चेत्। अतः समग्रः अपि समरः, युद्धं तु ताभ्यां भीतः भवति समरः। तस्मिन् समये प्रियसखस्य बलं वेत्तु राजा दुर्योधनः, एतस्य सामर्थ्यं कीदृशं भविष्यति भवति इति दुर्योधनः स्वयं जानातु इति परिहासात्मकं वचनं वदति अश्वत्थामा। व्याख्यां पठामः। यावत् कालम् अयम् एषः पापः पापात्मा अरिशरैः अरीणां शत्रूणां शरैः बाणैः निधनं मरणं न उपेयात् न उपगच्छेत् तावत् रणमुखे युद्धे मया द्रौणायनिना प्रियम् अपि रुचिकरम् अपि अस्त्रम् आयुधं परित्यक्तं विसृष्टम् अस्मिन् बलानां नाथे समरे एतस्मिन् कर्णसेनापतियुद्धे परिकुपितभीमार्जुनभये परिकुपिताभ्यां क्रुद्धाभ्यां भीमार्जुनाभ्यां मृकोदरकिरीटीभ्यां किरीटिभ्यां भये त्रासे समुत्पन्ने जाते सति राजा नृपः दुर्योधनः प्रियसखबलं प्रियसखस्य कर्णस्य बलं सामर्थ्यं वेत्तु जानातु इति खड्गम् उत्सृजति उत्सृजति त्यजति। एवम् एतं श्लोकम् उक्त्वा सः स्व आयुधं खड्गं तु उत्सृजति त्यजति। इदानीं कर्णः विहस्य कुलक्रम आगतम् एव एतत् भवादृशानां यद् अस्त्रपरित्यागो नाम। भवादृशाम् इत्युक्ते भवत्सदृशानां जनानां यद् अस्त्रपरित्यागो नाम अस्त्रपरित्यागः अस्त्रत्यागः इति विषयः कुलक्रम आगतम् एव परम्परया आगतम् फ्यामिलि एतत् अस्ति प्रोसीजर् अथवा हेबिट् इति। कारणं तव पिता अस्त्रं त्यक्तवान् युद्धक्षेत्रे, भवान् इदानीं त्यजति अस्त्रम्, अतः कुलक्रम आगतम् अस्त्रपरित्यागो नाम भवादृशाम् इति वदति। भवत्सदृशानां जनानाम् एषः अस्त्रपरित्यागः नाम विषयः कुलक्रमः एव, कुलक्रमात् आगतः एव, नूतनः विषयः न इति विहस्य वदति अश्वत्थामा। इदानीं ननु रे अपरित्यक्तम् अपि भवादृशैः आयुधं चिरपरित्यक्तम् एव निष्फलत्वात्। आयुधं भवादृशैः अपरित्यक्तम् अपि भवादृशैः जनैः भवत्सदृशैः जनैः आयुधम् अपरित्यक्तं न परित्यक्तं चेतपि चिरपरित्यक्तम् एव, चिरकालात् परित्यक्तम् इव किं कारणं निष्फलत्वात्। इदानीं कर्णस्य समीपे अस्त्राणि सन्ति किन्तु तैः अस्त्रैः प्रयोजनं नास्ति परशुरामस्य शापात्। परशुरामस्य शापः अस्ति इति कारणात् तस्य अस्त्राणि निर्वीर्याणि सन्ति, प्रयोजनरहितानि सन्ति। अतः भवतां हस्ते अस्त्रम् अस्ति चेदपि तस्य निष्फलत्वात् तस्य प्रयोजनरहितत्वात् चिरपरित्यक्तमेव, बहुकालात् भवद्भिः परित्यक्तमेव अस्त्रं। हस्ते अस्त्रम् अस्ति चेत् वा नास्ति चेत् वा किं प्रयोजनं, किमपि प्रयोजनं नास्ति। कर्णः अरे मूढ, धृत आयुधो अपि यावत् अहं तावत् अन्यैः किम् आयुधैः, यद्वा न सिद्धम् अस्त्रेण मम तत् केन सेत्स्यति। यावत् कालपर्यन्तम् अहं धृत आयुधः भवामि, आयुधधरः आयुधहस्तः भवामि, अस्त्रपाणिः भवामि, तावत् पर्यन्तम् अन्यैः आयुधैः किम्, अन्य आयुधैः किं प्रयोजनं भवति। अहम् आयुध अन्यैः नो चेत् अन्यैः वीरैः किं प्रयोजनं भवति, कोऽपि आयुधधरं मां जेतुं न शक्नोति इति तस्य विश्वासः। अतः यावत् अहम् आयुधधरः भवामि, धृतायुधः भवामि, तावत् अन्यैः आयुधैः किमपि प्रयोजनं भवति वा इति। अनन्तरं मम अस्त्रेण यद्वा न सिद्धं, मम अस्त्रेण अहं यत् साधितुं न शक्नोमि, तद् अन्येन अस्त्रेण सेत्स्यति किं, तद् अन्यत् किमपि अस्त्रं साधयितुं शक्नोति किम्।
मम अस्त्रमपि तावति वीर्ययुक्तम् अस्ति यत् मम अस्त्रेण न शक्यते चेत् अन्येन केनापि अस्त्रेण तत् कार्यं कर्तुं न शक्यते इति तस्य महान् विश्वासः कर्णस्य. यावत् कालम् अहं धृतायुधः भवामि, अहं धृतायुधः आयुधधरः अस्मि, तावत् पर्यन्तम् अन्यैः आयुधैः किम्, अन्यैः अस्त्रैः किं प्रयोजनं? किमपि कर्तुं न शक्यते, अन्यानि अस्त्राणि किमपि कर्तुं न शक्यते. मम हस्ते आयुधं यावत् अस्ति तावत् अन्यानि अस्त्राणि किमपि कर्तुं न शक्नुवन्ति. पुनः यत् मम अस्त्रेण न सिद्धं, मम अस्त्रेण यत् कार्यं न सफलति, तत् कार्यं केन अस्त्रेण केन सेत्स्यति, केन अस्त्रेण सेत्स्यति? मम अस्त्रं सर्वं साधयितुं समर्थमस्ति इति तस्य विश्वासः. अग्रे व्याख्यां पठामः. अहं कर्णः यावत् कालं धृतायुधः, धृतं गृहीतम् आयुधं येन सः, तावत् कालम् अन्यैः अपरैः आयुधैः धृतायुधैः किं प्रयोजनम्? अथवा अत्र धृता अन्यैः आयुधैः इति अत्र अर्थः धृतायुधैः नाम अन्यवीरैः किं भवति, किं प्रयोजनं भवति इति अर्थे अस्ति. तदपि युक्तमेव वा अथवा यत् कार्यं मम मे कर्णस्य अस्त्रेण आयुधेन न सिद्धं न सफलं जातं तत् केन न केनापि सेत्स्यति सम्पन्नं भविष्यति. अग्रे नेपथ्ये इदानीं नेपथ्यात् कश्चित् ध्वनिः श्रूयते. आहा दुरात्मन्य द्रौपदी केश अम्बर आकर्षण महापातकिन्न धार्तराष्ट्र अपसद चिरस्य खलु कालस्य मत्सम्मुखीनम् आगतोऽसि क्षुद्रपशो क्व इदानीं गम्यते. अपि च भो भो राधेय दुर्योधन सौबलप्रभृतयः पाण्डवविद्वेषिणः चापपानयः मानधनाः शृण्वन्तु भवन्तः. एषः ध्वनिः भीमस्य ध्वनिः. भीमः इदानीं भीमस्य ध्वनिः नेपथ्यात् इदानीं श्रूयते. इदानीं भीमः दुःशासनम् आकृष्टवान्, गृहीतवान् इति अनेन ज्ञायते. आहा दुरात्मन् दुष्ट द्रौपदी केश, द्रौपद्याः केश तथा अम्बर, अम्बर इत्युक्ते वस्त्रं. सो द्रौपद्याः केशम् अम्बरं च आकर्षणम् आकृष्टवान् अस्ति दुःशासनः. तस्मात् महापातकी अस्ति. महापातकं कृतत्वात् सः महापातकी नाम महापापी अस्ति. अतः महापापिन् इति स्थाने महापातकिन्. द्रौपद्याः केशवस्त्र आकर्षणरूपपापं कृतवान् अस्ति भवान्, तादृशः महापातकिन्. धार्तराष्ट्र अपसद धृतराष्ट्रकुलस्य अधमः अस्ति. धृतराष्ट्रकुल अधम चिरस्य खलु कालस्य मत्सम्मुखीनम् आगतोऽसि बहुकालात् परं. चिरस्य कालस्य बहुकालात् परं, बहोः कालात् परं मत्सम्मुखीनम् आगतः असि, मम पुरतः आगतवान् अस्ति, मम पुरतः आगतवान् असि त्वं क्षुद्रपशो. हे नीचपशु, पशु इति उच्यते चेदपि तत्र उच्यते चेदपि तद् युक्तमेव, किन्तु क्षुद्रपशु कारणं पशवः अपि उत्तमाः जन्तवः एव. अतः अत्र क्षुद्रपशो इति वदति, नीचपशुः इति, नीचपशो इति सम्बोधयति. क्व इदानीं गम्यते, कुत्र गम्यते त्वया? अपि च भो भो राधेय दुर्योधन सौबलप्रभृतयः. राधेय हे कर्ण, हे दुर्योधन, सौबलप्रभृतयः हे कर्ण, हे दुर्योधन, हे सौबल, अन्ये राजानः, पाण्डवविद्वेषिणः पाण्डवद्वेषिणः, चापमानयः अस्त्रधारिणः धनुर्धारिणः, मानधनाः मानम् एव धनम्, येषां ते मानधनाः, मान अर्थात् मान अभिमानाः, शृण्वन्तु भवन्तः, शृण्वन्तु इति इमं श्लोकं पठति भीमः.